इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। अद्य भारतं पाकिस्तानस्य नेतृत्वस्य अविवेकी युद्धोन्मादस्य द्वेषपूर्णस्य च टिप्पणीं प्रति प्रहारं कृतवान्। अवदत् च यत् कस्यापि दुस्साहसेत्यस्य वेदनादायकाः परिणामाः भविष्यन्तीति। स्वतन्त्रतादिवसस्यावसरे 90+ आरक्षि अग्निशामक गृह नागरिक सुरक्षा सुधार सेवानां च कर्मचारिणः शौर्य सेवा पदकैः पुरस्कृताः। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य 7 81वें स्वतंत्रता दिवसस्य पूर्वसंध्यायां राष्ट्रं संबोधयिष्यति। सर्वोच्च न्यायालयेन दिल्ली राष्ट्रीय राजधानी क्षेत्रे वंक कुक्कुरैः सम्बद्ध निर्देशान् स्थगयितुं याचनाः विषये आदेश रक्षितः। अपि च भारत ऋतु विज्ञान विभागेन देशस्य उत्तर भागेषु पूर्व भागेषु च अतिप्रचण्ड वृष्टेः पूर्वानुमानं कृतमस्ति। अथ वार्ताः विस्तरेण। अद्य भारतं पाकिस्तानस्य नेतृत्वस्य अविवेकी युद्धोन्मादस्य द्वेषपूर्णस्य च टिप्पणीं प्रति प्रहारं कृत्वा अवदत् च यत् सद्य एव यथा प्रदर्शितमस्ति तदनुसारं कस्यापि दुस्साहसेत्यस्य वेदनादायकाः परिणामाः भविष्यन्तीति। अद्य अपराह्णे नवदिल्ल्यां वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् पाकिस्तानस्य भाषणं नियन्त्रयितुं सम्यक् परामर्शः प्रदीयते इति।
युद्ध भड़काने वाले और नफरत भरे बयानों के निरंतर सिलसिले पर रिपोर्टें देखी हैं। अपनी नाकामियों को छुपाने के लिए बार बार भारत विरोधी बयानबाजी को हवा देना पाकिस्तानी नेतृत्व का जाना माना तरीका है, जिससे आप भलीभांति अवगत हैं। पाकिस्तान को सलाह देते हैं कि वह अपनी बयानबाजी में संयम रखे, क्योंकि जैसा कि अभी हाल ही में हमने देखा था और आप लोगों ने भी देखा था, किसी भी प्रकार के दुस्साहस का परिणाम दर्दनाक होगा।
स्वतंत्रता दिवसस्य अवसरे 90+ आरक्षि अग्निशामक गृह नागरिक सुरक्षा सुधारक सेवानां च कर्मचारिणः शौर्य सेवा पदकैः पुरस्कृताः। गृहमन्त्रालयेन उक्तं यत् 33,200 कर्मचारिणः शौर्य पदकेन, 99 कर्मचारिणः विशिष्ट सेवायाः कृते राष्ट्रपति पदकेन, 58+700 यावत् कर्मचारिणः प्रशंसनीय सेवायाः पदकेन च पुरस्कृताः सन्ति। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य 81वें स्वतंत्रता दिवसस्य पूर्वसंध्यायां राष्ट्रं संबोधयिष्यति। राष्ट्रपतेः संबोधनम् आकाशवाण्याः सम्पूर्णेषु राष्ट्रिय अन्तर्जाल पटलेषु सायं 7 प्रसारयिष्यते। तत्रैव सम्बोधनमिदं दूरदर्शनस्य सर्वासु वाहिनीषु हिन्दीभाषायां तदनन्तरम् आंग्लभाषायाम् अपि प्रसारयिष्यते। दूरदर्शने हिन्दी आंग्लभाषयोः सम्बोधनस्य प्रसारणानन्तरं दूरदर्शनस्य क्षेत्रीयवाहिन्यः अपि क्षेत्रीयभाषासु एतस्य प्रसारणं करिष्यन्ति। आकाशवाण्याः अपि सम्बन्धितक्षेत्रीयवाहिन्ये रात्रौ 9:30 क्षेत्रीयभाषासु राष्ट्रपतिसम्बोधनं प्रसारयिष्यते। राष्ट्रपति द्रौपदी मुर्मू अस्मै वर्षाय ग्रीष्मकालिक अमृतोद्यानस्य उद्घाटनं राष्ट्रपतिभवने कृतवती। उद्यानमिदं जनसामान्येभ्यः शनिवासरात् सितम्बर मासस्य 14 उद्घाटितं भविष्यति। अत्र बालानां मनोरञ्जनाय विभिन्नानि उपकरणान्यपि स्थापितानि सन्ति। 31 अगस्ते राष्ट्रिय क्रीडा दिवसावसरे अमृतोद्यानं विशेषतः क्रीडकेभ्यः बालेभ्यः विद्यालयीय शिक्षकेभ्यश्च उद्घाटितं स्थास्यति। अमृतोद्याने प्रवेशं पूर्णरूपेण निःशुल्कः भविष्यति। जनाः अन्तर्जालीय पटले visit.rashtrapatibhavan.gov.in इत्यनेन माध्यमेन अपि प्रवेशचीटिकाः प्राप्तुं शक्नुवन्ति। इदमुद्यानं सोमवासरे पिहितं स्थास्यति। श्वः राष्ट्रं 81वें स्वतंत्रता दिवसम् आमानयति। प्रधानमन्त्री नरेन्द्रमोदी शुभावसरेऽस्मिन् दिल्ल्याः लालकिलास्थलात् देशस्य समग्रस्य नेतृत्वं विधास्यति, अपि च राष्ट्रं सम्बोधयिष्यति। गतवर्षस्य स्वतन्त्रतादिवसस्य विषयो आसीत् विकसित भारतं 47+ इति। ऐषमः वर्षस्य स्वतन्त्रता दिवसस्य विषयो वर्तते नूतन भारतम्। एषः समारोहः समृद्धस्य सुरक्षितस्य शौर्यस्य च नूतन भारतस्य निरन्तरोत्थानस्य स्मरणार्थं मञ्चरूपेण कार्यं करिष्यति तथा च प्रगतिपथे अग्रे प्रवर्धनाय नवीनोर्जाः प्रदास्यति। अस्मिन् वर्षे स्वतन्त्रता दिवसस्य उत्सवस्य समये ऑपरेशन सिन्दूर इत्यस्य सफलतायाः उत्सवः भविष्यति। आमन्त्रणपत्रेषु ऑपरेशन सिन्दूर इत्यस्य अभियानस्य चित्रं तथैव चिनावशेतोः चिह्नं च अंकितमस्ति। अस्मिन् वर्षे रक्तदुर्गे उत्सवस्य साक्षिणः भवितुं विभिन्न वर्गेभ्यः 5,000 विशेषातिथयः आमन्त्रिताः सन्ति। सेना, नौसेना, वायुसेना, भारतीय तटरक्षक इत्येतैः बलैः देशस्य 40,000+ प्रमुखेषु वाद्य प्रदर्शनं भविष्यति।
इस स्वतंत्रता दिवस पर आकाशवाणी ला रहा है भारतीय सेना के शौर्य और पराक्रम की अद्भुत मिसाल, ऑपरेशन सिंदूर पर विशेष प्रस्तुति।
ऑपरेशन सिंदूर न्याय की अखंड प्रतिज्ञा है।
सुनिए 100.1 MHz आकाशवाणी FM गोल्ड पर 15 अगस्त की रात 9:30 से।
संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। अद्य जम्मू कश्मीरस्य किस्तवार जनपदे पड्डर क्षेत्रे चशोति ग्रामे मेघस्फोटस्य घटना संजाता, यस्मिन् 10 मृत्योः आशंका अस्ति। राष्ट्रपति द्रौपदी मुर्मू, प्रधानमंत्री नरेन्द्र मोदी, उपराज्यपालः मनोज सिन्हा, मुख्यमंत्री उमर अब्दुल्ला च घटनायां स्वसंवेदनाः प्रकटितवन्तः। सर्वोच्च न्यायालयेन अद्य दिल्ली राष्ट्रिय राजधानी क्षेत्रे वंक कुक्कुरान् आश्रय गृहान् प्रति निष्कासयितुम् अगस्त मासस्य 11 दिनांके 2 पीठेन दत्तान् निर्देशान् स्थगयितुम् याचनायाः विषये आदेशः रक्षितः। परञ्च त्रय न्यायाधीशयुतं न्यायपीठं नगरपालिकाधिकारिभ्यः निर्देशेषु स्थगनं न दत्तवन्तः। न्यायाधीशः विक्रमनाथः, न्यायाधीशः संदीप मेहता, न्यायाधीशः NV अंजारिया इत्येतैः युक्तः खण्डपीठः प्रकरणस्य श्रवणम् अकरोत्। भारतस्य निर्वाचनायोगः अद्य अवदत् यत् बिहारराज्ये विशेष गहन संशोधनस्य अभ्यासस्य विषये अभियोग आक्षेप कालस्य 14 अनन्तरम् अद्य पर्यन्तं कस्यापि राजनैतिकस्य दलस्य एकमपि अभियोगं वा आक्षेपं वा न दत्तम् इति। यूरोपीय नेतृभिः अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यस्मै अलास्का नगरे शुक्रवासरे रशिया देशस्य राष्ट्रपतिना व्लादिमीर पुतिन इत्यनेन सह एकपक्षीयं यूक्रेन शान्ति सन्धिं न कर्तुं प्रार्थितम्। जर्मन चांसलर फ्रेडरिक मेर्ज इत्यनेन आहूतस्य आभासीय शिखर सम्मेलने एषा पूर्वसूचना दत्ता, यस्मिन् अमेरिका देशस्य राष्ट्रपति डोनाल्ड ट्रम्प, यूक्रेन देशस्य राष्ट्रपति व्लोडिमीर जेलेंस्की, अनेकाः यूरोपीय नेतारः च आसन्।
We had a very good call. President Zelensky was on the call. I would rate it a 10. No, it was always going to be I was going to meet with President Putin, and then after that I'm going to call the leaders, and I'm going to call President Zelensky, and then I'll call probably in that order the leaders. There's a very good chance that we're going to have a second meeting, which will be more productive than the first, because the first is I'm going to find out where we are and what we're doing.
भारत ऋतु विज्ञान विभागेन देशस्य उत्तर भागेषु पूर्व भागेषु च अतिप्रचण्ड वृष्टेः पूर्वानुमानं कृतमस्ति। अद्य उत्तराखण्ड, जम्मू कश्मीर, पंजाब, दिल्ली, हरियाणा, चण्डीगढ़, तटीय आंध्र प्रदेश, ओडिशा इत्येतेषु पृथक् पृथक् स्थानेषु अतिप्रचण्ड वृष्टेः पूर्वानुमानम् अस्ति। अत्रान्तरे दिल्ली राष्ट्रिय राजधानी क्षेत्रे प्रातः कालादेव निरन्तरं वृष्टिः जायमाना अस्ति, यत्र प्रचण्ड वृष्टेः पूर्वानुमानमपि अस्ति इति वार्ताः।